चेतुदार्पणमार्चनम् भावमहदवग्नि निर्वापनम् श्रिया कायरवचान्द्रिका वितरणाम् विद्यवादुजीवनम् आनन्दभूतिवर्धनम् प्रतिपदाम् पूर्णामृतस्वादनम् सर्वात्मस्नापनम् परम् विजयते श्रीकृष्णसङ्कीर्तनम् नाम्नामकारि भक्ता निजसार्वशक्तिः तत्रार्पितानि यमितः स्मरणेन कला पितादृशी तव कृपा भगवान् ममापि दुर्दैवमीदृशमहाजनि ननुरगा हे नारवि सुलेचेन दारोरपि सहिष्णुना आमानिना मानादिना कीर्तनीया सदा हरि नादनं नचनं न सुन्दरीं कावितं वा जगदीशकमये मम जन्मनि जन्मनीश्वरे भावदं भक्तिरहैतु किद्वयि हय नन्ददं च किङ्करं पतितामृशमे भवान् बुधौ कृपया तव पदपङ्कज सदृशं विचिन्तयाम् नयनां गलदशुभारयम् वदनां गन्नदारुदयागिरम् उलकाय निचितां वपुःकदम् नामनाम ग्रहणे भविष्यति युगायितं नैलेशेनं चक्षुषा प्रवृषयितं शून्ययितं जगत्सर्वम् गोविन्द विरहेण मे अश्लेष्य वा पदरदां विनाश्तु माम् अदार्शनां मर्महदां करोतु वाम् यद्वदद्भावविदधतु वाम् पतो मत्प्रणदत्वास्तु स एव न परः